अथ श्रीयादित्यहृदयस्तोत्रम् ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् देवतैश्च समागम्य द्रष्टुमव्यागतो रणम् उपगम्य ब्रवीद्राममगस्त्यो भगवांस्तदा राम राम महाबाहो शृणुगुह्यं सनातनम् येन सर्वा नरीन्वत्स समरे विजयिष्यसे आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् जयावहं जपं नित्यमक्षयं परमं शिवम् सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् सर्वदेवात्मको ह्येष तेजस्वीरश्मिभावनः ये स देवासुरगणान् लोकान् पाति गवस्तिभिः ये स ब्रह्मा च विष्णुश्च शिवस्कन्दः प्रजापतिः महेन्द्रो धनदः कालो यमः सोमो ह्यपाम्पतिः पितरो वसवः साध्य अश्विनो मरुतो मनुः वायुर्वह्निः प्रजा प्राणा ऋतुकर्ता प्रभाकरः आदित्यः सविता सूर्य खगपोषगभस्तिमान् सुवर्णसदृशो भानुर्हिरण्यरेतादिवाकरः हरिदस्वसहस्रार्चिः सप्तसप्तिर्मरीचिमान् तिमिरोन्मथनः शम्भुस्तुष्टामार्तण्डको सुमान् हिरण्यगर्भशिशिरस्तपनो हस्करो रविः अग्निगर्भोदिते पुत्र शङ्खशिशिरनाशनः व्योमनाथस्तमो भेदे ऋग्यजुः सामपारगः घनवृष्टिरपां मित्रो विन्ध्यवेति प्लवङ्गमः आतपी मण्डली मृत्यो पिङ्गलः सर्वतापनः कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः नक्षत्रग्रहताराणामदिपो विश्वभावनः तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ज्योतिर्गणानां पतये दिनाधिपतये नमः। जयाय जय भद्राय हर्यस्वाय नमो नमः। नमो नमः सहस्रांसो आदित्याय नमो नमः। नमः उग्राय वीराय सारंगाय नमो नमः। नमः पद्मप्रबोधाय प्रचण्डाय नमोस्तुते। ब्रह्मेशानाच्युतेशाय सूरायादित्यवर्चसे। भास्वते सर्वभक्षाय रौद्राय वपुषे नमः। तमोग्नाय हिमग्नाय शत्रुघ्नाय मितात्मने। कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः। तप्तचामीकराभाय हरये विश्वकर्मणे। नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे। नाशयत्येष वैभूतं तमेव स्रजति प्रभुः। पायत्येष तपत्येष वर्षत्येष गभस्तिभिः। येष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः। येष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्। देवाश्च क्रतवश्चैव क्रतूनां फलमेव च। यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः। येन मापत्सु कृक्षेषु कान्तारेषु भयेषु च। कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव। पूजयस्वैनमेकाग्रो देवदेवं जगत्पते। एतत्त्रिगुणितं जत्वा युद्धेषु विजयिष्यसि। अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि। एवमुक्त्वा ततो गस्तो जगामस यथा गतम्। एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा। धारयामास सुप्रेतो राघवप्रयतात्मवान्। आदित्यं प्रेक्ष्य जद्वेदं परं हर्षमवाप्तवान्। त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्। रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागमात्। सर्वयत्नेन महता व्रतस्तस्य वधे भवात्। अथ रविरवदन्निरीक्ष्य रामम् मुदितमनाः परमं प्रहर्ष्यमाणः। निशिचरपतिसंशयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति। ओ